इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः केरल तमिलनाडुप्रदेशयोः 16,000 कोटिरूप्यकाणां विविधविकासपरियोजनाः उद्घाटिताः प्रधानमन्त्री तमिलनाडुराज्यस्थस्य तिरुचिरापल्लीनगरस्य पञ्जप्पुरक्षेत्रे विविधपरियोजनानां शिलान्यासं 5,500,000 कोटिरूप्यकाणां सम्पन्नपरियोजनानां राष्ट्रार्पणञ्च अकरोत् अस्मिन् अवसरे श्रीमोदी अवदत् यत् केन्द्रसर्वकारेण आरब्धानां मूलसंरचनविकासकार्यक्रमाणां सम्पर्काभिवृद्धिपूर्वकं स्थानीय अर्थव्यवस्थायाः अभिवृद्धिञ्च प्रशासनं करिष्यति येन स्थानीय लोकाय वृत्त्यवसराश्च वर्धयिष्यन्तीति
Today's program is an important one for the future of Tamil Nadu. It is related to project worth 5,600 crore rupees. These projects are about infrastructure for clean energy, petroleum-related manufacturing, highways, railways and rural roads. They will boost energy access connectivity and create thousands of jobs for the youth of Tamil Nadu.
प्रधानमन्त्री द्वयोः अमृत भारत एक्सप्रेस रेलयानयोः द्वयोः नियमित एक्सप्रेस रेलयानयोः एकस्य च यात्री रेलयानसेवायाः ध्वजप्रदर्शनपूर्वकम् उद्घाटनम् अकरोत् श्रीमोदी इण्डियन ऑयल कॉर्पोरेशन इत्यस्य ल्यू ब्लेंडिंग प्लांट इत्यस्यापि लोकार्पणम् अकरोत् कार्यक्रमे भाषमाणः प्रधानमन्त्री अवदत् यत् राज्यस्य विकासाय सर्वकारः अहर्निशं कार्यं कुर्वन्नस्तीति राज्यसभायाम् अद्य ग्राम विकास मन्त्रालयस्य कार्याणां विषये आधिक्येन चर्चा भविष्यतीति मन्ये लोकसभायां वित्तमन्त्री निर्मला सीतारामनः अस्य वित्तीयवर्षस्य सेवाभ्यः भारतस्य सञ्चितनिधितः बहिस्तादपि कतिपय धनराशिं दातुं विनियोजयितुञ्च सत्रस्यास्य विनियोजनविधेयकं प्रस्थापयिष्यति श्वः लोकसभायां विपक्षीणां सभाध्यक्षस्य ओम बिरला इत्यस्य निष्कासनप्रस्तावः ध्वनिमतेन निराकृतः राष्ट्रपतिपदासीना द्रौपदी मुर्मुः अद्य नवदेहल्यां कृषि खाद्य प्रणाल्यां महिलानां भूमिकेति विषयकं वैश्विक सम्मेलनम् उद्घाटयिष्यति केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहानः अपि अस्मिन् अवसरे उपस्थितः भविष्यति पेट्रोलियम प्राकृतिक वात्यन्धन मन्त्रालयस्य संयुक्त सचिवेन सुजाता शर्मा इत्यनया उक्तं यत् भारतस्य अशोधित तैलापूर्तिः सुरक्षितास्ति देशस्य च अशोधितस्य तैलायातस्य प्रायः 70% भागम् अधुना होर्मुज जलसन्धिः इत्यस्मात् बहिः अस्तीति ह्यः नवदेहल्यां पश्चिम एशियायाः वर्तमानस्थितिः इति विषये अन्तर्मन्त्रालयीयं विवरणं प्रकाशयन्ती सा एतत् उक्तवती
भारत सरकार ने रिफाइनरीज और पेट्रोकेमिकल कॉम्प्लेक्सेस को एलपीजी उत्पादन को मैक्सिमाइज करने का आदेश दिया इन सभी प्रयासों की वजह से हमारा डोमेस्टिक एलपीजी प्रोडक्शन हैज इंक्रीज्ड बाय 25%
पश्चिम एशियायाः चिन्ताप्रदा स्थितिः तीव्रतया वर्धमाना अस्ति ईरानदेशः पर्शियन गल्फेति क्षेत्रे वाणिज्यिक नौवहनं लक्ष्यीकृत्य यूएई मध्ये विमानयानस्य मूलसौकर्ये आक्रमणं कृतवान् अबुधाबीनगरस्य अधिकारिणः अवदन् यत् पुरातनस्य अबुधाबी विमानस्थानकं निकषा अग्निप्रकोपः अभवत् वायुरक्षाव्यवस्थया च आपदा निवारिता पूर्वं मार्चमासस्य एकादशदिनांके दुबई अन्ताराष्ट्रिय विमानस्थानके ड्रोनाक्रमणेन भारतीय नागरिकसहितं चतुर्जनाः व्रणिताः आसन् कतरदेशे भारतीय दूतावासः सूचितवान् यत् देशे विलम्बितान् 500+ भारतीय नागरिकान् स्वीकृत्य गतरात्रौ कतर एयरबस इति विमानयानानि नवदेहल्या सह अन्यस्थानानि प्रति प्रस्थितानि अन्ते क्रीडावार्ता भारतस्य क्रिकेट नियन्त्रण मण्डलेन बीसीसीआई इत्यनेन अस्य वर्षस्य इण्डियन प्रीमियर लीग इत्युक्ते आईपीएल इत्यस्य प्रथमचरणीय कार्यक्रमाणां घोषणा कृता क्रीडैषा अस्य वर्षस्य अष्टाविंशति मार्चतः एप्रिल मासस्य 12 दिनांकपर्यन्तं क्रीडिष्यन्ते इति वार्ताः